अजमिह प्रथमोधाजिधातृभिर्होताजिजिष्ठो अध्वरेष्वीड्याः यमप्नपानो भृगवो विरुचुरवने एष चित्रम् विभ्रम् विषे विषे अग्ने एकदात अनुषग्भुवद्देवस्य चेतनम् अधाहित्वा अजग्रभ्यरे मर्ता सो विक्ष्वेड्यम् ऋतापानम् विचेतसम् पश्यन्तोद्यामि वस्त्रभिः विश्वेषामध्वराणाम् हस्कर्ता रन्दमेदमे आशुन्दोतम् विवस्वतो विश्वाजश्चर्षणीरभि आजभ्रः केतुमाजवो भृगवाणम् विषे विषे तमीम् होतारमानुषक्चिकित्वाम् सन्निषेदिरे रण्वम् वा अवकशोचि संयजिष्ठम् सप्तधामभिः तम् शश्वतेषु मातृशवन आपीतमश्रितम् चित्रम् सन्तम् गुहा अहितम् सुवेदम् कोचिदर्थिनम् सस्य यद्वियुतासस्मिन्नोधन् ऋतस्य धामन् रणयन्तदेवाः महाम् अग्निर्नमसा रातहौ यो वेरध्वराजसदमिधृता वा वेरध्वरस्य दूत्यानि विद्वानुभे अन्तारोदसी सञ्चिकित्वान् दूत ईजसे प्रदिव उराडो विदुष्टरो दिव आरोधनानि कृष्णन्त ए मरुषतः पुरोभाश्चरिष्मा अर्चरवपुषामिदेकम् यत प्रवीता दधते हगर्भम् सद्यश्चिज्जातो भवसीतु दूतः सद्यो जातस्य ददृशा नमो जोजतस्य वातो अनुवाति शोचिः वृणक्त्यतिक्मामतसेषु जिह्वाम् स्थिरा चिदन्नादयते विजम्भैः तृषयदन्ना तृषुणा भवक्ष तृषुम् दूतम् कृणुते जह्वो अग्निः वातस्य मेळिम् सचते निजोर्वन्नाशुन्नवा जयते हिन्वे अर्वा